इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। जयशंकरः बांग्लादेश प्रकरणे लोकसभायाम् उक्तवान् यत् भारतं स्वनागरिकैः सह निकटतया निरन्तरं च सम्पर्के अस्ति। ब्रिटेन सर्वकारः बांग्लादेशे अशान्तेः विषये संयुक्तराष्ट्रसंघस्य नेतृत्वे अन्वेषणं कर्तुम् आह्वयति। प्रधानमन्त्री शेख हसीना च त्यागपत्रं दत्त्वा देशात् प्रस्थितवती। लोकसभाया अस्य वर्षस्य वित्त विधेयकं विचारार्थम् अनुमोदनाय च स्वीकृतम्। बुल्गारियादेशे वर्तमानकाले संवैधानिक व्यवस्थायाः अनुगुणं सर्वकारस्य निर्माणाय तृतीयः अन्तिमः च प्रयासः अपि असफलः अभवत्। अपि च पेरिस ओलम्पिक इति क्रीडायां नीरज चोपड़ाः पुरुषाणां कुन्तल प्रक्षेपणस्पर्धायाः अन्तिमचक्राय योग्यतां प्राप्नोत्। भारतीय मल्लयोद्धी विनेश फोगाट च उपान्त्यस्पर्धां प्रति अगच्छत्। अथ वार्ताः विस्तरेण। बांग्लादेशे अशान्तेः मध्ये प्रायः 21,000 भारतीय नागरिकाः सन्ति, तेषु 9,000 छात्राः सन्ति। अद्य अपराह्ने बांग्लादेशस्य स्थितिं प्रति राज्यसभायां वक्तव्यं ददन् विदेशमन्त्री डॉ जयशंकरः अवदत् यत् ढाका नगरस्य उच्च आयोगस्य परामर्शेण गतमासे एव बहुसंख्यकाः छात्राः भारतं प्रत्यागताः सन्ति। डॉ जयशंकरः उच्चसदनं सूचितवान् यत् नवदेहली प्रशासनं अल्पसंख्यकानां स्थितिं प्रति निरीक्षणं कुर्वत् अस्ति। तेषां संरक्षणार्थं कल्याणार्थं च प्रशासनं विविधसमूहैः संस्थाभिश्च सह सम्पर्के अस्ति। सः अवदत् यत् यावत्पर्यन्तं विधिव्यवस्थायाः प्रत्यक्षतया पुनः स्थापनं न भवति तावत् भारतदेशः गभीरतया चिन्तितः भविष्यतीति। सः अवदत् यत् भारतीय सीमा रक्षक बलान्यपि अस्याः जटिल स्थित्याः इतोपि असाधारणतमं भवितुं शक्नोतीति निर्देशो दत्तः अस्ति। सः अवदत् यत् बांग्लादेशस्य प्रधानमन्त्री शेख हसीना सुरक्षा संस्थानानां नेतृभिः सह मिलित्वा स्वपदात् त्यागपत्रं दातुं निश्चितवतीति। सः सूचितवान् यत् सा तत्क्षणमेव भारतम् आगन्तुम् अनुमतिं याचितवती तथा च गतरात्रौ देहली नगरं प्राप्तवती। गत 24 होराभ्यः देहली अपि ढाका नगरस्य अधिकारिभिः सह नियमिततया सम्पर्के आसीत्। विदेशमन्त्री अवदत् यत् बांग्लादेशस्य स्थितिः अद्यापि वर्धमाना एव अस्ति। बांग्लादेशस्य जनरल वाकर उज जमान नामकः सेनाप्रमुखः ह्यः राष्ट्रं सम्बोधयन् दायित्वस्य ग्रहणपूर्वकम् अन्तरिम सर्वकारस्य निर्माणविषये च अवदत्। बांग्लादेशे भारतस्य कूटनीतिक उपस्थितिविषये मन्त्री सूचितवान् यत् ढाकानगरे उच्चायोगम् अतिरिच्य चिट्टगांग, राजशाही, खुलना, सिलहेट इत्येतेषु नगरेषु सहायक उच्च आयोगाः अपि सन्ति। सः अवदत् यत् आतिथेय सर्वकारः एतेषां प्रतिष्ठानानां कृते अपेक्षित सुरक्षां प्रददाति इति। भारतम् अपेक्षते तथा च स्थितिः सुस्थिरां प्राप्य तेषां सामान्य कार्यस्य प्रतीक्षां करोति। एतन्मध्ये ब्रिटेन सर्वकारः बांग्लादेशे अशान्तेः विषये संयुक्तराष्ट्रसंघस्य नेतृत्वे अन्वेषण कर्तुम् आह्वयति। बांग्लादेशे भेदभाव विरोधमाश्रित्य घटितेन छात्र आन्दोलनेन अन्तरिम सर्वकार निर्माणस्य योजना निरूपितास्ति। अस्य आन्दोलनस्य समन्वयकः नोबेल इति पुरस्कार विजेता डॉ मोहम्मद यूनुस इत्येषः देशस्य अन्तरिम सर्वकारस्य मुख्योपदेशकरूपेण प्रस्तावितोऽस्ति। प्रमुख संयोजक नाहिद इस्लाम इत्येषः सामाजिक प्रसार माध्यमेषु प्रकाशिते वीडियो इति संदेशे घोषणाम् अकरोत् यत् समन्वयकानां मतानुगुणं डॉ यूनुस इत्ययं पात्रं स्वीकर्तुम् अंगीकृतवानिति। राष्ट्रपतिः मोहम्मद सहाबुद्दीन इत्येषः देशस्य संचालनाय अन्तरिम सर्वकारस्य निर्माणं कर्तुं च निश्चितवान्। यदा बांग्लादेशे उग्रशान्तेः मध्ये शेख हसीना प्रधानमन्त्रिपदात् त्यागपत्रं दत्तवती, फलतः आरक्षकाणां छात्र आन्दोलनकारिणां च मध्ये संघर्षः अभवत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सीमा सुरक्षाबलस्य महानिदेशकः दलजीत सिंह चौधरी अद्य पश्चिमबंगस्य उत्तर 24 परगना इति मण्डले भारत बांग्लादेश सीमायाः यात्रां कृतवान्। एतेषु महत्वपूर्णेषु सीमाक्षेत्रेषु बीएसएफ इति संघस्य परिचालनसज्जतया सह सामरिक नियोजनस्य च समीक्षा अस्य यात्रायाः मुख्योद्देश्यः अस्ति। बांग्लादेशस्य स्थितिं दृष्ट्वा बीएसएफ संस्थायाः सुरक्षावर्धनार्थं भारत बांग्लादेश सीमायाः समीपे संचेतनापि निस्सारिता अस्ति। अद्य प्रातः वाराणसी नगरस्य काशी विश्वनाथ देवालयस्य समीपस्थे द्वे भवने पतिते, येन एकस्याः महिलायाः मृत्युः अभवत्, अन्ये च नव जनाः व्रणिताः सन्ति। प्रधानमन्त्री नरेन्द्र मोदी वाराणसी आयुक्तेन कौशल राज शर्मणा सह दुर्घटना विषये वार्तालापं कृत्वा प्रभावित जनानां सहायतां कर्तुम् आदिष्टवान्। प्रातःकाले अतिवृष्ट्याः कारणेन दुर्घटनेषा घटिता। दुर्घटनायाः सूचना प्राप्तेः अनन्तरं आरक्षिबलेन एनडीआरएफ इति राष्ट्रियो आपदा प्रतिक्रिया बलस्य चिकित्सकाः श्वान दलानि च तत्स्थानं प्राप्तवन्तः। सर्वेपि व्रणिताः चिकित्सालये प्रवेशिताः सन्ति। लोकसभायाम् अस्य वर्षस्य वित्त विधेयकं विचारार्थम् अनुमोदनाय च स्थापितमासीत्, तत् लोकसभया स्वीकृतम्। चर्चायाः आरम्भं कुर्वन् कांग्रेस पक्षस्य डॉ अमर सिंहः आरोपितवान् यत् केन्द्रीय आयव्ययेन केवलं उच्च आय समूहानां जनानां कृते लाभः प्रदत्तः, मध्यम निम्न आय समूहानां विषये न चिन्तितमस्तीति। चर्चायां भागं गृह्णन् भाजपा दलस्य निशिकांत दुबे अवदत् यत् केन्द्रीय आयव्यये एंजल कर इत्यस्य उन्मूलनस्य प्रस्तावः कृतोऽस्ति, येन देशे नवोद्योग संस्थानां यूनांच वृत्तेः संभावनाः वर्धिताः भविष्यन्ति। अग्निवीर योजनायाः विमर्शार्थं सः विपक्षं पृष्टवान्। केन्द्रीय अभिकरणस्य दुरुपयोगस्य आयोगस्य विषये विपक्षम् उद्दिश्य श्री दुबे इत्यनेन प्रहारोऽपि कृतः। बुल्गारिया देशे वर्तमानकाले संवैधानिक व्यवस्थायाः अनुगुणं सर्वकारस्य निर्माणाय तृतीयः अन्तिमः च प्रयासः अपि असफलः अभवत्, ततः परं नूतनं निर्वाचनं भविष्यति। बुल्गारिया देशे वर्षत्रयेषु एतत् सप्तमं निर्वाचनं भविष्यति। राष्ट्रपतिः रूमेन रादेवः सद्यः एव लघुतमं संसदीय समूहं प्रधानमन्त्रिपदस्य अभ्यर्थित्वेन नामाङ्कयितुं सर्वकारस्य निर्माणं कर्तुं च आदिष्टवान्, परन्तु दलं पर्याप्त समर्थनं संगृहीतुं असफलम् अभवत्। बुल्गारिया देशस्य संविधाने अधुना राष्ट्रपतिः कार्यवाही सर्वकारस्य नियुक्तिं कृत्वा नूतन संसदीय निर्वाचनस्य प्रतिक्रियां निर्धारयेत् इति अपेक्षा अस्ति। सर्वकारेण सूचितं यत् गत दशवर्षेषु अतिरिक्ततया षडुत्तरैकशतं जलमार्गाः राष्ट्रिय जलमार्गाः इति घोषिताः सन्ति। राज्यसभायाम् अनुपूरक प्रश्नानां प्रत्युत्तरे नौवहन जलमार्ग मन्त्री सर्वानन्द सोनोवालः अवदत् यत् गत दशवर्षेषु जलमार्गेण भारवहनं षड्गुणं वर्धितमस्तीति। द्विसहस्रानन्तरं त्रयोदश चतुर्दशतमे वर्षे जलमार्गैः अष्टादश लक्ष मेट्रिक टन इतोप्यधिकानां वस्तूनां प्रेषणम् अभवत्। अन्ते क्रीडावार्तासु, पेरिस ओलंपिक्स इति क्रीडाकुम्भे नीरज चोपड़ा पुरुषाणां कुन्तल प्रक्षेपण स्पर्धायाः अन्तिमचक्राय योग्यतां प्राप्नोत्। महिलानां 50 किलोग्राम फ्री स्टाइल इति क्वार्टर प्रागुपांत चक्रीय क्रीडायां च यूक्रेन देशस्य ओक्साना लिवाच इत्येनां पराजित्य भारतीय मल्लयोद्धी विनेश फोगाट उपांत्य स्पर्धां प्रति अगच्छत्। हॉकी क्रीडायां हरमनप्रीत सिंह इत्यस्य नेतृत्वे विद्यमान संस्करणे अद्यापि उत्साहपूर्णं प्रदर्शनं कृतम् इति वार्ताः।